मा कर्तारम् स्पृशन्तु पुरुषम् सांख्यायवाप्यार्हता कर्तारम् कलयन्तु तं किल सदा भेदावबोधादधः ऊर्ध्वं तु धत् बोधधाम नियतम् प्रत्यक्षमेनं स्वयं पश्यन्तु च्युतकर्तृभावमचलं ज्ञातारमेकं परम्।